ओम नमो भगवते वासुदेवाय। अथ दशमोऽध्यायः। मैत्रेय उवाच, प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः, उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ, इलायामपि भार्यायां वायोः पुत्र्यां महाबलः, पुत्रमुत्कलनामानं योषिद्रत्नमजीजनत्, उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा, हतपुण्यजनेनाद्रौ तन्मातास्य गतिं गता, ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः, जैत्रं चन्दनमास्थाय गतः पुण्यजनालयं, गत्वोदीचीं दिशं राजा रुद्रानुचरसेवितां, ददर्श हिमवद्रोण्यां पुरीं गुह्यकसङ्कुलां, दध्मौ शङ्खं बृहद्बाहुः खं दिशश्चानुनादयन्, येनोद्विग्नदृश अक्षत्तरुपदेव्योऽत्र सन्भृशं, ततो निष्क्रम्य बलिन उपदेव महाभटाः, असहन्तस्तन्निनादमभिपेतुरुदायुधाः, सतानापततो वीर उग्रधन्वा महारथः, एकैकं युगपत् सर्वानहन् बाणैस्त्रिभिस्त्रिभिः, ते वै ललाटलग्नैस्तैरिषुभिः सर्व एव हि, मत्वा निरस्तमात्मानमाशंसन् कर्म तस्य तत्, तेऽपि चाममृष्यन्तः पादस्पर्शमिवोरगाः, शरैरविध्यन् युगपद्विगुणं प्रचिकीर्षवः, ततपरिगनिस्त्रिंशैः प्रासशूलपरश्वधैः, सकृष्टिभिर्भुषुण्डीभिश्चित्रवाजैः शरैरपि, अभ्यवर्षन् प्रकुपिताः सरथं सहसारथिम्, इच्छन्तस्तत्प्रतीकर्तुमयुतानि त्रयोदश, औत्तानपादिश्च तदा शस्त्रवर्षेण भूरिणा, न उपादृश्य तच्छन्न आचारेण यथा गिरिः, हाहाकारस्तदैवासीत् सिद्धानां दिवि पश्यताम्, हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे, न दत्सु यातु धानेषु जयकाशिश्वथो मृधे, उदतिष्ठद्रथस्तस्य निहारादिव भास्करः, धनुर्विस्फूर्जयन् दिव्यं द्विषतां खेदमुद्वहन्, अस्त्रौघं व्यथमद्बाणैर्घनानीकमिवानिलः, तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम्, कायानाविविशुस्तिग्मा गिरिनशनयो यथा, भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः, ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभिः, हारकेयूरमुकुटैरूष्णीशैश्च महाधनैः, आश्रितास्तारणभुवो रेजुर्वीरमनोहराः, हतावशिष्टा इतरेरणाजिराद् रक्षो गणाक्षत्रियवर्यसायकैः, प्रायो विवृक्ना वयवा विदुद्रुवुर्मृगेन्द्रविक्रीडितयूथपा इव, अपश्यमानः सतदाततायिनम् महामृधे कञ्चन मानवोत्तमः, पुरीम् दिदृक्षन्नपि नाविशद्विषाम् न मायिनाम् वेदचिकीर्षितम् जनः, इति ब्रुवंश्चित्ररथस्वसारथिम् यत्तः परेषाम् प्रतियोगशङ्कितः, शुश्रावशब्दम् जलधेरिवेरितम् नभस्वतो दिक्षुरजोऽन्वदृश्यत, क्षणेनाच्छादितम् व्योम घनानीकेन सर्वतः, विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना, बभृशूरुधिरौघासृक्पूयविण्मूत्रमेदसः, निपेतुर्गगनादस्य कबन्धान्यग्रतो नघ, ततखे दृश्यत गिरिर्निपेतुः सर्वतो दिशम्, गदापरिगनिस्त्रिंश मुसलासास्मवर्षिणः, अहयोशनि निःश्वासा वमन्तोऽग्निम् रुषाक्षिभिः, अभ्यधावन् गजामत्ताः सिंहव्याघ्राश्च यूथशः, समुद्रौर्मिभिर्भीमः प्लावयन् सर्वतो भुवम्, आशसादमहार्रादः कल्पान्तैव भीषणः, एवं विधान्यनेकानि त्रासनान्यमनस्विनाम्, ससृजुस्तिग्मगतय आसुर्या माययासुराः, ध्रुवे प्रयुक्तामसुरैस्ताम् मायामतिदुस्तराम्, निशाम्य तस्य मुनयः समाशंसन् समागताः, मुनय ऊचुः, औत्तानपादे भगवान्स्तव सार्ङ्गधन्वा, देवक्षिणोत्ववनतार्तिहरो विपक्षान्, यन्नामधेयमभिधाय निशम्य चाद्धा, लोकोऽञ्जसा तरति दुस्तरमङ्गमृत्युम्। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे दशमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।